शेषसि अभिदेवाजास्याः मतीजुष्टो धियाहितः सोमो हिन्वेव रावति विप्रस्य धारया कविः अयम् देवेषु जाग्रे विश्रुतयेति पवित्रः सोमो जातिविचर्षणिः स नः पवस्ववाजयश्चक्रानश्चारु मध्वरम् ध्वरिष्मावीवासति स नो भगाय वाजवे विप्रवीरः सदा वृधः सोमो देवेष्वाय मत् स नो अद्य वसुत्रये क्रतुविद्वाधुवित्तमः वाजुम् देविश्रवो बृहत् सपवस्वमदायकण्डचक्षा देववीतये इन्द्रमिन्द्राय वीतये सनो अर्षाभिदूत्या अन्तमिन्द्राय दोषसे देवान् सखिभ्यावरम् उत त्वामरुणम् वयम् गोभीरञ्जोमदायकम् विनो राजे दुरोवृधि अद्यो पवित्रमक्रमे द्वाजीधुरन्नयामानि इन्दुर्देवेषु पत्यते समी सखायो अश्वरण्वने क्रीळन्तमत्यविम् इन्दुम् नावानोषत त्रया पवस्वधारयाजया पीतो विचक्षसे इन्दोस्तोत्रे सुवीर्यम् असग्रम् देववीतयेत्या सकृत्या इव क्षरन्दः पर्वतावृथाः परिष्कृता स इन्द्र भोजोषे भवित्यावति वायुम् सोमा असृक्षत एते सोमा स इन्द्र बह्वयस्वन्तश्च मूषुताः इन्द्रम् वर्धन्ति कर्मभिः आधावता सुहस्य शुक्राग्रभ्णीतमन्थिनाः गोभिश्रेणीतमत्सरम् सपवस्वधनञ्जय प्रयन्ताराध सोमः अस्मभ्यम् सोमगातिवित् एतम् वेचन्ति मध्यम् पवमानम् दसक्षिपाः इन्द्राय मत्सरम् वदम् अजा सोमस्वकृत्यया महश्चीदभ्यावर्धत मन्दान उद्वेषायते कृतानीतस्य कर्त्वा छेदम् तेतस्य दर्हणा ृष्णश्चायते आ सोम इन्द्रियो रसो भद्रसहस्रसा भूवत् उक्षम् यदस्य जायते स्वयम् कविर्विधर्तरि विप्रायरत्नमिच्छति यदीमम् विद्यते धियाः शासतो रजीनाम् वाजेश्वर्वतामिव भरेषु जिज्ञुषामसि ृम्णानि बिभ्रतम् सधस्तेषु महो दिवः चारुम् सुकृत्यये महे संवृत्तधृष्णमुख्यम् महामाहिम्रतम् मदम् शतम् पुरोरुक्षणिम् अदस्वारयिमभिराजानम् सुक्रतो दिवः सुपर्णोऽव्यशिर्भारत् विश्वस्वायत्स्वदृशे साधारणम् रजस्तुरम् गोपामृतश्रविर्भरत् अधाहिन्वालयिन्द्रियम् जायो महित्तमानसे अभिष्टिवद्विचर्षणिः पवस्ववृष्टिमासु नोपामूर्मिम् दिवस्परि अयक्ष्मा बृहदीर्षाः सदा पवस्वधार जादुजागावयिहागमन् जन्यासगुपानो गृहम् घृतम् वस्वधाराया यज्ञेषु देववीतमः अस्मभ्यम् वृष्टिमापव स न ऊर्जेव्या अव्ययम् पवित्रम् धावधाराया देवासशृणवह्निकम् अवमानो अशिष्यद्रक्षाम् स भजङ्गलत् तत्रवद्रोचयन् रुचाः ुत्ते सुष्मा सीरते सिन्धोरोर्मेरीवस्वनः बाणस्य चोदया पविम् सवेदबुदीरते तिस्रो वाचो मुखस्युवाः कदव्ययेषिधानवि अव्योवारे बलिप्रियम् हरिम् ఇన్ పంచద్రీభిః అవమానం మధుసుతం ఆపవస్వమదిందమ పవిత్రం ధారయాగవే అర్కస్య యోనిమాసదం సపవస్వమదిందమ గోభీరం జానో అద్భుభీః ఇందవింద్రాయ పీతయే అధ్వర్యో అద్రేభిశ్వతం సోమం పవిత్రాసేజ మేహేంద్రాయ పాతవే దివః పేజోషమోత్తమం సోమమింద్రాయ వజ్రిణే సునోతామధూమత్తమం తవచ్చ ఇందో అంధసో దేవామధోర్యస్మతే అవమానస్య మరుతాః త్వం హి సోమవర్ధయన్ సుతోమదాయ భూర్ణయే ఋషన్ సోతారభూతయే అభ్యర్ణవిలక్షణ పవిత్రం ధారయాసుతః అభివాజ ముతస్రవాః పదేజ్యోక్షః సనద్రాజర్భరద్వాజం నో అంధసా సువానో అర్ణ పవిత్రా తవ ప్రత్నేభిరద్వాభిరవ్యో వారే పరిప్రియః సహస్రధారో యాత్తనాః చరుణ్ణయస్తమీంఖయేందో నదానమీంఖయ దస్నవీంఖయ నిషణ్వామిందవేషాం గురోహోదజనానా యో అస్మాం ఆదిదేశతి శతన్న ఇందభూతిభిః సహస్రం వాసుకీనా అవస్వమం హయద్రయిః వత్తే సుష్మాసో అస్థో రక్షో భిందందో అద్రివః నుదస్వజాః పరిస్పృథాః అజానీ జగ్నిరోజసారథ సంగేధనే హితే సభా అభిభ్యుషా హృదా అస్య వ్రతానినాధృషే పవమానస్య దూఢ్యా ఋజయస్త్వా బృధన్యతి సమంఘిన్ వంది మదచ్యుతం హరిం నదీషు వాజినం ఇందుమింద్రాయ మత్సరం అస్య ప్రజ్ఞామనద్యుతం శుక్రం తు దుఃఖే అగ్రజః వయస్సహస్రసామృషిం అయం సూర్య ఇవ భద్రగయం సరాంసి ధావతి సప్త ప్రపదాదివం అయం విశ్వాని తిష్ఠతి పునానో భువనోపరి సోమో దేవో న సూర్యాః హరిణో దేవీతయే వాజాంకరిషతి గోమతః పునాన ఇందవింద్రయో యమయ్యవన్నో అంధసా పుష్టం పుష్టం పరిశ్రవ సోమ విశ్వాచ సౌభగా ఇందో యథాతవస్తవో యథా తేజాతమంధసః నిబర్హిషి ప్రియే సదః ఉతనో గోవిత స్వమిత్పవస్వ సోమాంధసా మక్షూతమేభిరహభిః యోజినాతి నదీయతే హంతి శత్రుమభీత్య సవావస్వ సహస్రజిత్ హరి సోమారుతం బృహదాసుః పవిత్రే అర్షతి విఘ్నం రక్షాంసి దేవయోః యత్సోమో వాజమర్షతి శతం ధారా అపశ్యువాః ఇంద్రస్య సఖ్యమా విశన్ అమిత్వాయోషణో దశచారణ్యకన్యానూషత మృజ్యసే సోమసాతయే సుమింద్రాయ విష్ణవే స్వాతురిందో పరిశ్రవ రేం స్తోత్రేం బాహ్యం వసః కృతే ధారాసశ్చతో దివో నయన్ని విష్టయాః అచ్చావాజం సహస్రణం అభిప్రియాని కావ్యా విశ్వాచక్షా నో అర్షతి హరిస్తుం జాన ఆయుధా సమర్మృజాన ఆయుభిర్ఘోరాజే వసువ్రతః శేనో నవం సుశీలతి స నో విశ్వాదివో వసూతో పృథివ్యా అధి పునానయిందమాభర తరత్సమందీధావతిధారాసుతస్యాంధసః తరత్సమందీధావతి ఉశ్రావేదవసూనాం మర్తస్య దేవ్యవసః తరత్సమందీధావతి स्वश्रयोः पुरुषम् चोरासहस्राणि दद्महे तदत्समन्दीधावति आययोस्त्रिंशदन्तना सहस्राणि च दद्महे तदत्समन्दीधावति पवस्वगोजितस्वजिद्विश्वजित् सोमरण्यजित् प्रजाभद्रत्रमाभर पवस्वाभ्यो अदाभ्यः पवस्वौषधीभ्यः पवस्वधिषणाभ्यः त्वम् सोमपवमानो विश्वानि दुरितातर कविश्रीदनि बलिषि पवमानस्वर्विदो जायमानो भवो महान् इन्दो विश्वानभिदसि गायत्रेण गायत पवमानम् वितर्षणिम् इन्दुम् सहस्रचक्षसम् त्वम् त्वा सहस्रचक्षसमथो सहस्रभर्णसम् अधिवारमपाविषुः अधिवारान् पवमानो अशिष्यदत्कलशाम् अभिधावति इन्द्रस्य हार्द्या विशन् इन्द्रस्य सोमराधशेषम् पावस्व विचर्षणे प्रजाभद्रे दाभर अया भीति परिश्रमयस्त इन्दो मदेष्वा अवाहन्नवतीर्णव पुरस्सद्य इच्छाधीये दिवो दासाय संवरम् असत्यम् दुर्वशम् यतुम् परेणो अश्वमश्वविद्गोमादिन्दो हिरण्यवत् क्षरासहस्रिणीरिषाः पवमानस्य ते वयम् पवित्रमभ्यम् ददः सखि त्वमावृणीमहे एते पवित्रमूर्मयो भिक्षरम् द्विधारया तेभिर्न सोममृणय सनः पुनानाभरलयम् वीरवतीमिषम् ईशान सोमविश्वताः एतमुत्यन्तसक्षिपो मृजन्ति सिन्धु मातरम् समादित्येभिरक्ष्यत स्वमिन्द्रे नोत वायुनाः सुतयेति पवित्रा स्वम् सूर्यस्य रश्मिभिः नो भगाय वाजवे पूष्णे पवस्व मधूमान् चारुर्मित्रे वरुणे च उच्चादे जातमन्धसो दिविषद्धोम्यादे उग्रम् सर्वमहिश्रवाः येना विश्वान्यर्याद्युम्नानि मानुषाणाम् शिषा सन्तो मनामहे स न इन्द्राय यज्ज वेवरूणाय मरुध्याः हरिवो वित्परिश्रव उपोषु जातमब्दुरङ्गोभिर्भङ्गम् परिष्कृतम् इन्दुम् देवायासिषुः तमिद्वर्धन्तु नो गिरो वत्सम् संसिश्वरीव इन्द्रस्य हृदम् सनीः अर्षाण स्वमसङ्गवे दुःखस्वाभिप्युषीमिषम् वर्धा समुद्रमुख्यम् मानो अजीजनदिवश्चित्रम् नतम् यतम् ज्योतिर्वैश्वानरम् बृहत् पवमानस्य तेन सोमदो राजन्नदुच्छुनः विवारमव्यमर्षति पवमानरसस्तपदक्षो विराजदिद्युमान् ज्योतिर्विश्वम् स्वदृशे यस्ते मदो वरेण्यस्तेनाः पवस्वान्धसा देवा वीरघसंसः जघ्निर्भृत्रमामित्रियम् सस्निर्वाजम् दिवे दिवे घोषावो अश्वसासि संविश्वो अर्षो भवसु भस्ताभिर्नधेनुभिः श्रीरम् चेनो नयो निमा स्वभावस्वज आभिथेन्द्रम् वृत्राय हन्तवे ब्रिवांसम् महीरपः सुवीरा सोमयम् धनाजयेम सोममीढ्वः पुनानो वर्धनो गिराः ओदासस्तवावसास्यामन्वन्त आमुराः सोमव्रतेषु जागृहि अभ्यन्तवसे मृधो भसोमो अराव्णः गच्छन्निन्द्रस्य निष्कृतम् महो नो राजाभरपवमानजहि मृधाः राश्रेन्दो वीरभद्यसाः न त्वा सतम् च न हृदो राधो दित्सम् तमामीनन् यत्पूनानो माघस्य सेः अवस्वेन्दो वृषा सुतः कृधीनो यशसो जने विश्वाभद्विषो जिहि अस्य ते सख्ये वयम् तवेन्दो जिम्नवुत्तमे सा सख्यामृतम् यतः यादे भीमान्यायुधा दिग्मानि सन्ति दूर्वाणे रक्षा समस्य नो निदः एते आसृघ्नमिन्दवस्थिरः पवित्रमासवाः विश्वान्यभिसौभागा जिघ्नन्तो दुरिता पुरुषुकातो काजवाजिनाः तनाः गृण्वन्तो अर्वते गृण्वन्तो वरिभोगभेभ्यर्षन्ति सुष्ठुतिम् इलामस्मभ्यम् संयतम् असाव्यम् सर्वदा याप्सु दक्षो गिरिष्ठाः श्येनो न यो निवासदत् शुभ्रमन्धो देववातमप्सु धूतो नृभिः श्रुतः स्वदङ्गिका वः पयोभिः आदिमस्वन्न हेतारोऽसु शुभन्नमृताय मध्वोरथम् सधमादे यास्ते धारा मधुस्तुतो शक्रमिन्दभूतये आभिः पवित्रमासदः सो अर्षेन्द्राय पीतये तिलो रोमाण्यव्यया श्रीधन्यो नामनेष्वा स्वमिन्दो परिस्रवस्वादिष्ठो अङ्गीरोभ्यः हरिवो विघृतम् वयाः अयम् विचर्षनिर्हितः पवमानस्व चेदति हिन्वान आप्यम् बृहत् येष वृषा वृषौ रथः पवमानो असस्तिः करद्वसो निदासुषे आपवस्वदहस्विनम् लिङ्गो मन्दमश्विनम् पुरश्चन्द्रम् पूरस्पृहम् येषस्य परिषिच्यते मर्मृज्यमान आयुभिः उरुगायः कविक्रतुः सहस्रोदिशतामघो विमानो रजसः कविः इन्द्राय पवते मदाः गिराजात इह स्तुत इन्दुरिन्द्राय धीयते वीर्यो नावसतावीव पवमानस्तुतो नृभिः सोमो वाजमिवासरत् चमोषु सग्मनासदम् तन्त्रीपृष्ठे स्त्रीबन्धुरे रथे युञ्जन्ति यातवे श्रीणाम् सप्तधीतिभिः संसोतारोधनस्तृतमासुम् वाजाय जातवे हरिम् विनोत वाजिनम् आविशम् कलशम् सुतो विश्वा अर्षम् अभिश्रियाः सूरो न गोषु तिष्ठति आत इन्दो मदायकम् पयो दुहन्त्यायवाः देवा देवेभ्यो मधु आनः सोमम् पवित्रासृजता मधुमत्तमम् देवेभ्यो देवश्रुत्तमम् एते सोमा असृक्षदगृणानाश्रवसे महे मदिन्दमस्य धारया अभिगव्यानि भीतये ढृम्ना पूनानो अर्षसि सनद्वायः परिश्रम उतनो गोमतीर्षो विश्वार्षपरिष्टुभाः गृणानो जमदग्निना अवस्वभाचो अग्र्यः सोमचित्राभिरुदिभिः अभिविश्वानि काव्या त्वम् समुद्र्या अपोऽग्र्यो वाच जीरयन् अवस्वविश्वमेजय तुभ्येमा भुवनाकवे महिम्ने सोमतस्थिरे स्वभ्यपरिषन्ति सिन्धवः रते दिवो न भिष्टयोधारायन्त्य सश्चताः अभि शुक्रामोपस्थिरम् इन्द्रायेन्दुम् पुनीतनो ग्रन्दक्षाय साधनम् ईशानम् वीतिराधसम् अपमानरितः कविः सोमः पवित्रमासदत् ततः स्तोत्रे सुवीर्यम् आपवस्वतहस्विनम् रजिम् सोम सुवीर्यम् अस्मे श्रवांसि धारय इषमोर्जङ्गपिन्वसैन्द्राय मत्सरिन्दमः चमोष्वानुषीदसि सुत इन्द्राय विष्णवे सोमः कलसे अक्षरत् मधुमास्तु वायवे एते अदृग्रमासवो जिह्वरांसि बभ्रवाः सोमारुतस्य धारया इन्द्रम् वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् अभग्नन्तो अरावणः सुता अनुस्वमानजोऽभ्यर्षन्ति बभ्रवाः इन्द्रम् गच्छन्त इन्दवः अयापापस्वधारयायया सूर्यमरोचयः इन्वानो मानोषीरपः अयुक्तसूरजेत सम्पवमानो मनावधि अन्तरिक्षेण जातवे उतत्या हरितो दशसूरो अयुक्तजातवे इन्दुरिन्द्र इति ब्रुवन् हरितो वाजवे सुतङ्गिरगिन्द्राय मत्सरम् अव्यो वाडेषु सिञ्चत पवमानपितारजिमस्मभ्यम् सोमदुष्टरम् योधूनासो मनुष्यता अभ्यर्षदहस्रिणम् रयिम् गोमन्दमश्विनम् अभिवाजमुतस्रवाः सोमो देवो न सूर्योद्रिभिः पवते सुतः दधानः कलशे रसम् एते धामान्यार्या शुक्रारुतस्य धारया वाजङ्गोमन्दमक्षरन् सुता इन्द्राय भद्रिणे सोमाः सोदध्यासिनः पवित्रमत्यक्षरन् सोममधुमत्तमो राजे अर्षपवित्रा मधो यो देववीतमः समी मृजञ्चायभो हरिम् नदीषु वासिनम् इन्दुमिन्द्राय मत्सरम् आपवस्वहिरण्यपदस्वा वत्सोमवीरवत् वाजम् गोमन्तमाभर हरिवाजेन वा जयुमव्यो वाजेषु सिञ्चत इन्द्राय मधुमत्तमम् कविम् रेजन्ति वर्ज्यम् दीभिर्विप्रावस्यवाः मृषा कणिक्रदर्शति ऋषाणम् दीभिरप्तुरम् सोममृतस्य धारया मदीविप्रासमस्वरन् अवस्वदेवायुषगिन्द्रम् गच्छतु ते मधाः वायुमारोहधर्मणा अपमानितो ससेरयम् सोमस्वबाह्यम् प्रियः स मुद्रमावीश अपघ्नम् पापसे पृथक् प्रतिवित्सोममत्सरः मुदस्वादेवयुञ्जनम् अपमानानृक्षत सोमाः शुक्रास इन्दवः अभिविश्वानि काव्याः अपमानास आसवः शुभ्राः शृग्रमिन्दवः नन्दो विश्वापद्विषाः अपमानाधिपस्पर्यन्तरिक्षादसृक्षत पृथिव्या अधिसारवि पुराणस्तोमधारयेन्दो विश्वा अपसृधाः जहि रक्षांसि सुक्रतो अपघ्नान् सोमरक्षसोऽभ्यर्षकनिक्रदत् जिमन्तम् सुष्मामुत्तमम् अस्मे वसूनिधारय सोम दिव्यानि पार्थिवा इन्दो विश्वानि वार्या वृषा सो मध्युमासि वृषा देववृषौ व्रतः वृषा धर्माणि दधिषे वृष्टस्ते वृष्टम् दवो वृषावनम् वृषामदाः सत्यम् वृषन् वृषेदसि अश्वो न जग्रतो वृषा सङ्गायन्तो समर्वतः विनो राजे दुरोभिधि असृक्षत प्रवाजिनो गव्यासो मासो अश्वजा शुक्रासो वीरजा सवाः शुम्भमानायुर्मिज्यमानागभस्त्योः अमन्ते वारे अव्यये ते विश्वा दासुषे वसु सोमा दिव्यानि पार्थिवान्तामान्तरिक्ष्या उपमानस्य विश्वभिप्रथे सर्गा असृक्षत सूर्यस्येव नरस्मजाः केलम् गृह्णन्ति वस्परि विश्वा रूपाभ्यर्षसि समुद्रस्वोमभिन्दसे हिन्वानो वाच मिष्यसि पवमानविधर्मणि अत्रान् देवो न सूर्याः इन्दः पविष्टचेतनः प्रियः कवीनाम् मति सृजदस्वम् रथीरिव ऊर्मिर्यस्ते पवित्रादेः वावीः पर्यक्षरत् सीदन्धृतस्य यो निमा सनो अर्णपवित्रामदो यो देववीतमः इन्दविन्द्राय पीतये युषेपवस्वधारया मृज्यमानो मनीषिभिः इन्दो रुचाभिगायीः नानो वरीवस्कृद्योर्जम् जना जगिर्वणः हरे सृजान आशिरम् नानो देववीतजगिन्द्रस्य यागनिष्कृतम् दिदानो वाजभिर्यतः सहिन्वादा सहिन्दवोच्छा समुद्रभासवाः धिया जूता सृक्षत अर्मृजाना च आजभो वृथा समुद्रमिन्दवः अग्मन् ऋतस्य यो निमा परीणो याह्यस्मयुर्विश्वावसून्यो च सा वाहिनः शर्म वीरवत् विमाधिवह्निरेतसः पतञ्जूजानऋक्वभिः प्रयस्य मुद्र आहीतः आयद्योनिम् हिरण्ययमासुरृतस्य सीदति जहात्यप्रचेतसः अभिवेदानोषते यक्षन्ति प्रचेतसः मध्यन्त्य विचेतसः इन्द्रायेन्दो मरुत्वा देवः समधुमत्तमः ऋतस्य योनिमासदम् ्रावचोविदः परिष्कृण्वन्ति वेदसाः सन्त्वा मृजन्त्याजवाः प्रसन्ते मित्रो अर्जवापि बन्ति वरुणः कवे भवमानस्य मरुताः त्वम् सोमविपश्चितम् पुरानो वाचमिष्यसि इन्दो सहस्रभर्णसम् कुतो सहस्रभर्णसं वाचम् सोममखस्युवम् पुनानयन्दवाभर पुनानयन्दवेषाम् पुरोहूतजनानाम् यस्य मुद्रमावीश न विद्युदद्या रुचापरिष्टो भञ्चा कृपा सोमाः शुक्रागवासिरः हिन्वानो हेतृभिर्यतः वाचम् भाद्यक्रमीत् सीदन्तो मनुषो यथा पृथक्सोमस्वस्तये सञ्जग्मानो दिवः कविः अवस्वसूर्यो दृशे भद्रन्न अपि वातयमनाः ओ हरिः ओ हिन्वन्ति सूरमुस्रजस्वसा रोजामयस्पतिम् महामिन्दुम् महीयुवाः अवमानरुचारुचा देवो देवेभ्यस्परि ఇస్లావసూన్యామీశ ఆపవమానదుష్టుతిం వృష్టిం దేవేభ్యో దువాహ నిషేపవస్వ సంయతం నిషాష్యసి భానునాద్యుమంతం త్వాహవామహే అవమానస్వాధ్యాః ఆపవస్వ సువీర్యం మందమానస్వాయుధ ఇహోష్విందవాగహి యదద్భి పరిధిచ్యసే మృజ్యమానో గభస్త్యోః తృణాసధస్థమశ్రుషే ప్రసోమాయవ్యస్వమత్పవనానాయ గాయత మహే సహస్ర చక్షసే యస్య వర్ణం మధుశ్రుతం హరిం హిన్వంత్యద్రీభిః ఇందుమింద్రాయ పీతయే తస్య దేవాజినో వయం విశ్వధనాని జిగ్యుషాః సఖిత్వమావృణీమహే విషావమస్వధారయామరత్వా తేజవత్సరః విశ్వాదధా నవోజసా అంత్వా దత్తారమోన్యో ఓపవమానస్వదృశం ఇందేవాజేషు వాజినం అయాసిత్తో విపానయా హరిపవస్వధారయా ఇదం వాజేషు చోదయ ఆనయిందో బహీమిషం పవస్వ విశ్వదర్శదః అస్మభ్యం సోమగాదువిద్ ఆ కలసా అనూషతేందోధారాభిరోజసా ఏంద్రస్య పీతయే విష యస్య దేవమధ్యం రసం తీవ్రం దుహంత్యద్రీభిః సవస్వాభిమాదివా రాజా మేధాభిరీయతే పవమానో మనావధి అంతరిక్షేణ జాతవే ఆన ఇందో సదగ్నిం కపాం పోషం స్వస్యం మహాభగత్తి మూతయే ఆనస్సోమసహో జుగో రూపన్నవర్చసే భర సుష్వానో దేవవీతయే అర్ఢా సోమద్యుమత్తమోభిద్రోణా నిరోరూపత్ సీదం చేనో నయో నివా అప్సా ఇంద్రాయ వాజభే వరుణాయ మరుధ్యాః సోమో అర్షతి విష్ణవే ఇషం తోకాయ నో దధదస్మభ్యం సోమ విశ్వతాః ఆపవస్వసహస్రిణం ఏ సోమాస పరావధియే అర్వావతి సుందిరే ఏ వాదశర్యణావతి యాధీకేషు కృత్వసుయే మధ్యే పస్త్యానాం ఏ వాజనేషు పంచసు ఏనా వృష్ట్యం దివస్పరిపవం తామా సువీర్యం సువానా దేవాస ఇందవః అవదే హర్యతో హరిర్గృణానో జమదగ్నినా హిన్వానో ఘోరధిత్వసి ప్రశుక్రాసో వయోజుగో హిన్వానాసో న సప్తజః శ్రీనానా అప్సృంజత తన్వాసుతేష్వాభువో హిన్విలే దేవతాదయే సపవస్వానయా రుచా ఆదే దక్షం మయోభువం వన్నీ మధ్యారిణీమహే పాంతమాపూరుస్పృహం ఆ మంద్రమావరేణ్యమావి ప్రమావనీషిణం పాంతమాపూరుస్పృహం ఆ రయిమాసు చేతు నమాసు క్రతో తనూష్వా పాంతమాపూరుస్పృహం అవస్వ విశ్వదర్శనేభి విశ్వాని కావ్యాః సఖా సఖిభ్యైర్భ్యాః తాభ్యాం విశ్వస్య రాజసి ఏపవమానధామని ప్రతీచీ సోమతస్థతుః పరిధామాని యాని తే త్వం సోమాసి విశ్వతాః అపవమాన ఋతుభిః కవే అవస్వ జనజన్యషోభి విశ్వాని వార్యాః సఖా సఖిభ్య భూతయే నవ శుక్రాసో అర్చయో దివస్పృష్ఠే వితన్వతే पवित्रम् सोमधामभिः अवे मे सप्तसिन्धव प्रशिषम् सोमसिस्रते तुभ्यम् धावन्ति धेनवः सोमयाहि धारया सुत इन्द्राय मत्सरः नो अक्षीतिश्रवाः समत्वादिभिरस्वरह्यन्वती सप्तजामजाः विप्रमाजाभिवस्वतः बृहन्ति त्वा समग्रुवो ये जीरावधिष्वणि रेवो यदज्जसेवने पवमानस्य ते कवेवाजयम् सर्गा असृक्षत अर्वन्तो न स्रवस्य वाः अच्छाकोशम् मधुस्तु तमसृग्रम् वारे अव्यये अवावसन्तधीतयाः अर्चा समुद्रमिन्दवोऽस्त्वम् गावो न धेनवाः अग्मन्मृतस्य यो निवा प्रणयिन्दो महेरणापो अर्षन्ति सिन्धवः यद्गोभिर्वासयिष्यसे अस्य ते सख्ये भयम् यक्षन्तस्तोतयः इन्दो सखि त्वपुष्मसि आपावस्वगविष्टये महे सोमनृतक्षसे येन्द्रस्य जठरे विशा महासितो मज्येष्ठ उग्राणामिन्द्रवो ज्येष्ठः युद्वासम् छ स्वज्जिगेत युग्रेभ्यश्चितो जीयाच्छूरेभ्यश्चिच्छूरतरः भूरिताभ्यश्चिन्मम् हीयान् त्वम् सोमसूरयेषस्तोकस्य सातातनूनाम् वृणीमहे सख्याय वृणीमहे युज्याय अग्नायोम् शिपवसा सुवोर्जमिषम् च नः कारे बाधस्वदुच्छुनाः अग्निर्षिपवमानः पाञ्चजन्यः पुरोहितः त्वमीमहे महाघयम् अग्ने पवस्वस्वपाः अस्मे वर्चस्वीर्यम् दधद्रयम् मयि पोषम् पवमानो अधिश्रुतोऽर्षति सुष्ठुतिम् सूरो न विश्वदर्शतः समर्मृजानायुभिप्रयस्वान् प्रयासेहितः इन्दुरत्यो विचक्षणः पवमानरतम् बृहच्छुक्रम् ज्योतिरजीयनत् कृष्णातमाम् सजङ्घणत् पवमानस्य जङ्घ्नतो हरेश्चन्द्रासृक्षत जीराजिरसोऽषः पवमानो रचितमशुभ्रेभिः शुभ्रसस्तमः हरिश्चन्द्रो मरुद्गणः पवमानो व्यश्रमद्रस्मभिर्वाजसातमः दधः सोत्रे सुवीर्यम् ससु वान इन्दुरक्षा पवित्रमध्यव्ययम् गुणानयेन्दुरेन्द्रवा एष सोमो अधित्वजिगवाम् क्रीडद्यद्रीभिः इन्द्रम् मदा यजोहूमत् यस्य ते द्युम्नभत्वयः पवमानाभृतम् दिवः तेन नो मृळजीवसे त्वम् सोमासि धारयर्मन्द्रवो जुष्ठो अध्वरे पवस्वमम् भयद्रयिः त्वम् सुतो नुवादनो दधन्वान्मत्सरिन्दमः इन्द्राय सूरिरन्धसा त्वम् सष्वानो अद्रिभिरभ्यर्षगणिक्रदत् युवन्तम् सुष्मामुत्तमम् इन्दुर्हिन्वानो अर्षति तिरोवाराण्यव्यया हरिर्वाजमचिक्रदत् इन्दो व्यव्यमर्षसि विश्रवाम् शिविसौभागा जिवाजान्सामगोमतः आनायिन्दो सदग्निनम् लिङ्गोमन्तमश्विनम् भरासोमसहस्रिणम् अपमानास इन्दवस्थिरः पवित्रमासवाः इन्द्रम् यामेभिरासत खगुः सोम्यो रस इन्दुरिन्द्राय भूर्यः आयुः पावत आरवे हिन्वन्ति सोरमुस्रायः पवमानम् मधुस्तुतम् అభిగిరాసమస్వరన్ అవితానో అజాస్వ పూషా జామని యామని ఆభక్షత్కన్యాసున
సోమకపర్జినే
ఘృతన్న పవతే మధు ఆభక్షత్కన్యాసున అయంత ఆఘృణే సుతో ఘృతన్న పవతే శుచి ఆభక్షత్కన్యాసున వాచో జంతఃకవీనాం పవస్వ సోమధారయ దేవేషోరత్ర దాసి ఆకలసేషు ధావతి సేనో వర్మ విగాహతే అభిద్రోడాకణి క్రదతి పరిప్రసోమతే రసో సర్జి కలసే సుత సేనో నతక్తో అర్షతి పవస్వ సోమబందయన్నింద్రాయ మధూమత్తమః అసగ్రం దేవీతయే వాజయంతో రథాయివ తే సుతాసోమలిందమా శుక్రవాయుమసృక్షద గ్రామ్నా దున్నా అభిష్టూతః పవిత్రం సోమగచ్చసి తదస్తోత్రే సువీర్యం ఏడదున్నా అభిష్టూతః పవిత్రమతిగాహతే రక్షోహావారమవ్యయం జలంతి యచ్చ దూరకే భయం విందతి మామిహ మమమాన వితజ్జహి మమమానస్సో అర్జనః పవిత్రేణ వితర్షణిః యః పోతాస పూనాతునః యత్తే పవిత్రమర్చిష్యగ్నే విదదమంతరా బ్రహ్మతేన పునీహినః యత్తే పవిత్రమర్చివదగ్నే తేన పునీహినః బ్రహ్మసవైః పూనీహినః ఉభాభ్యాం దేవసవితః పవిత్రేణ సవేన చ మాం పూనీహి విశ్వతాః విభిష్టం దేవసవితర్వరుషిష్ఠైః స్వామధామాభిః అగ్నే దక్షైః పునీహినః పునంతు మాం దేవజనాః పునంతు వసవోధియా విశ్వే దేవాః పునీతమా జాత వేద పునీహి మా ప్రప్యాయ స్వప్రస్యందస్వ సోమవిశ్వేభిరంసుభిః దేవేభ్య ఉత్తమం హవిః ఉప ప్రియం పణిప్రతం యువానమాహుతీవృధం అగన్మభిభ్రాతో నమః అలాయస్య వరసున్ననాశతమాపవస్వ దేవ సోమ ఆకుంజీ దేవదేవ సోమ యః పావమానీరధ్యే తృషేభిః సంవృతం నసం సర్వం సభూతమస్వాదిస్వధితం మా దరిశ్వనా పావమానీర్యో అధ్యే తృషేభిః సంవృతం నసం తస్మై సరస్వతీ దుహే క్షీరం సర్పిర్మధూదరం.